एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रतिनिधिसभातः विश्वासस्य मतम् प्राप्तमस्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे प्रधानमन्त्रिणा प्रचण्डेन प्रस्तुतस्य विश्वासस्य मतस्य प्रस्तावस्य पक्षे द्वासप्तत्युत्तरशतं मतानि व्यक्तानि सन्ति। मतदाने द्वाषष्ट्युत्तरशतद्वयं सांसदाः उपस्थिताः आसन्। सभामुखा देवराज घिमिरे मतविभाजनस्य परिणामं सार्वजनिकुर्वन् विश्वासस्य मतस्य प्रस्तावस्य पक्षे द्वासप्तत्युत्तरशतं मतानि व्यक्तानि, संख्येयं प्रतिनिधिसभाया तत्कालम् उपस्थितानां सम्पूर्ण सदस्यानां बहुमतमस्तीति हेतोः प्रधानमन्त्रिणा प्रचण्डेन विश्वासस्य मतं प्राप्तम् अस्तीति उदघोषयत्। सभामुखा घिमिरे प्रतिनिधिसभातः विश्वासस्य मतं प्राप्तमित्यालक्ष्य प्रधानमन्त्रिणे प्रचण्डाय वर्धापनं च प्रादात्। प्रस्तावस्य विपक्षे 89 मतानि व्यक्तानि, विश्वासस्य मतं नदीयते इति पक्षे एकं मतं व्यक्तं च आसन्। प्रधानमन्त्रिणे प्रचण्डाय नेपाली कांग्रेस दलस्य, नेकपा माओवादी केन्द्रस्य, राष्ट्रिय स्वतन्त्र दलस्य, जनता समाजवादी दल नेपालस्य, नेकपा एकीकृत समाजवादी दलस्य, जनमत दलस्य, नागरिकोन्मुक्ति दलस्य, लोकतान्त्रिक समाजवादी दलस्य, राष्ट्रिय जनमोर्चा दलस्य, आम जनता दलस्य च सांसदै स्वतन्त्र सांसदेन अमरेश कुमार सिंहेन च विश्वासस्य मतं प्रदत्तम् आसीत्। नेकपा एमाले दलस्य, राष्ट्रिय प्रजातन्त्र दलस्य च सांसदैः विश्वासस्य मतस्य प्रस्तावस्य विपक्षे मतदानं विहितम् आसीत्। नेपाल मजदूर किसान दलं तटस्थम् आसीत्। तत्पूर्वं विश्वासस्य मतस्य प्रस्तावोपरि विहिते विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड राष्ट्रिय हितस्य प्रक्रियायाश्च अनुसारेणैव सर्वकार अग्रे वर्धितोस्तीति समस्पष्टयत्। प्रधानमन्त्री प्रचण्ड संविधानस्य, लोकतन्त्रस्य, गणतन्त्रस्य, संघीयतायाः, समावेशितायाः, समानुपातिक प्रणाल्याः, शान्ति संविधायाश्च पालनाय नेपाली कांग्रेस दलेन सह सहकार्यं विहितमिति स्पष्टीकृतवान्। प्रधानमन्त्री प्रचण्डः आत्मना प्रधानमन्त्री पदाय एमाले दलं न गतमिति स्पष्टीकुर्वन् उद्देश्य असमानतायाः कारणेन गठबन्धनं परिवर्तनीयम् अभूत् इति अतर्कयत। सदने बहुमतस्य विद्यमानतां यावत् भूयो भूयो विश्वासस्य मतं ग्रहणीयं न भवतीति तर्कयन् प्रधानमन्त्री प्रचण्ड सर्वकारेण पूर्णतायाः प्राप्तेः अनुपदमेव नवीनगत्या सर्वकारः अग्रे वर्धते इति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्डः सर्वकारः अर्थतन्त्रस्य पुनरुत्थानाय, सुशासनस्य प्रत्याभूत्यै, विकास निर्माणाय, सेवा प्रवाहस्य सरलीकरणाय, सामाजिक न्यायस्य प्रवर्धनाय, राष्ट्रिय हितस्य अभिवृद्धये च दायित्ववाहितया क्रियाशीलोस्तीति अगदत्। विश्वासस्य मतस्य प्रस्तावं समर्थयन् नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा मिश्रित निर्वाचन प्रणाल्या समावेशी चरित्रस्य, समाजस्य निर्माणस्य उद्देश्यं सार्थकं विधातुं गठबन्धनस्य संस्कारे अभ्यस्ततायाः विकल्पो नास्तीति उदैरयत्। विमर्शने नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः अवोचत् वर्तमान गठबन्धनम् आगामिनी पञ्चवर्षाणि स्थास्यति, अनेनैव गठबन्धनेन देशाय राजनैतिकं स्थायित्वं च प्रदास्यते। एवमेव नेकपा एमाले दलस्य उपाध्यक्ष विष्णु प्रसाद पौडेलः प्रधानमन्त्रिणे प्रचण्डस्य मतं प्रदातुं कथं विदोपि आधार कारणञ्च एमाले दलेन दृष्टम् नास्तीति कारणेन प्रस्तावस्य विपक्षे स्थीयते इति उद्घोषितवान्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र प्रसाद लिङ्गेन प्रधानमन्त्रिणे प्रचण्डाय विश्वासस्य मतं दातुं न शक्यते इति भाषमाण कतिचित् दिनेभ्यः पूर्वमेव सर्वकारात् पृथक् भूतेन राप्रपा दलेन सम्प्रत्येव विश्वासस्य मत प्रदानस्य अवस्था सृष्टा नास्तीति अतर्कयत्। सर्वकारेण कृषि पशुपक्षी विकास मन्त्रालयस्य विषयगत समित्या विहितं निर्णयं निरस्य रासायनिक मलाय प्रदीयमानम् अनुदानं यथावत् स्थापयितुं निर्णीतं वर्तते। सिंहप्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य उपविष्टेन मन्त्री परिषद उपवेशेन रासायनिक मलाय प्रदीयमानम् अनुदानं न न्यूनीकृत्य यथावत् स्थापयितुं निर्णीतम् अस्ति। उपवेशेन रासायनिक मलाय प्रदीयमानस्य अनुदानस्य विषये विस्तृताध्ययनस्य पश्चात् आवश्यकं निर्णयं विधाय आगामी दिनेषु अतिरिक्तम व्यवस्थितम वैज्ञानिकम च विधातुमपि निर्णीतम इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत। एवमेव उपवेशेन नेपाल प्रहरीण जनपद समूहस्य पञ्चानां प्रहरीणा एव महानिरीक्षकाणां प्रहरी अतिरिक्त महानिरीक्षक पदे मनोन्नयन पदोन्नयनम विधातुमपि निर्णीतम वर्तते। राष्ट्रपते रामचन्द्र पौडेलस्य समक्षं नवनिर्वाचितः उपराष्ट्रपति रामसाहेब प्रसाद यादवः ह्यः पदगोपनीयतायोः शपथम् अगृह्णात्। शीतलनिवासस्थिते राष्ट्रपति कार्यालये आयोजिते विशेष समारोहे राष्ट्रपतिः पौडेलः उपराष्ट्रपतिं यादवं शपथम् अग्राहयत्। पदगोपनीयतायोः शपथग्रहणस्य अनुपदमेव उपराष्ट्रपतिना यादवेन लयनचोरस्थानस्य हरितगृहवर्तिनम् उपराष्ट्रपतेः कार्यालयं प्राप्य पदभारः न्यूनीकृतो वर्तते। उपराष्ट्रपतिना यादवेन पदभार ग्रहणस्य पश्चात् कार्यालयस्य परिसरे वृक्षारोपणं विहितम् आसीत्। यादवः अस्यैव चैत्रस्य तृतीये दिवसे उपराष्ट्रपतौ निर्वाचितः आसीत्। निर्वाचन आयोगेन तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रे बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रे च आगामिनो वैशाख मासस्य दशमे दिवसे उपनिर्वाचनस्य सम्पादनत्वेन दिनांक निर्धारितो वर्तते। आयोगस्य ह्या उपविष्टेन उपवेशेन वैशाख मासस्य दशमे दिवसे प्रात सप्तवादनात् सायं पञ्चवादनं यावत् मतदानाय समय निर्धारितो स्थिति आयोगस्य सहायक प्रवक्ता सूर्य प्रसाद अरियाल अज्ञापयत। गत फाल्गुन मासस्य पञ्चविंशे दिवसे सम्पन्ने राष्ट्रपति निर्वाचने वरिष्ठ नेता रामचन्द्र पौडेलः राष्ट्रपति पदे निर्वाचितः इति हेतोः तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रे अस्यैव चैत्रस्य तृतीय दिवसे सम्पन्ने उपराष्ट्रपति निर्वाचने रामसाय प्रसाद यादव उपराष्ट्रपति पदे निर्वाचित इत्यतः बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रे च प्रतिनिधि सभायाः सदस्य पदम् रिक्तम् वर्तते। महान्यायाधिवक्त्रा दिनमणि पोखरेलेन राष्ट्रिय स्वतन्त्र दलस्य सभापतौ रवि लामिछाने विधे पारपत्र दुरूपयोगम् आधृत्य न्यायिक प्रकरणम् नचालयितुम् निर्णीतम् वर्तते। जनपद सर्वकारीयाधिवक्तृ कार्यालयात् उच्च सर्वकारीयाधिवक्तृ कार्यालयाच्च प्राप्तस्य प्रतिवेदनस्य महान्यायाधिवक्तृ कार्यालयस्य टिप्पण्याश्च आधारेण महान्यायाधिवक्त्रा न्यायिक प्रकरणम् नचालयितुम् निर्णीतम् इति महान्यायाधिवक्तृ कार्यालयस्य प्रवक्ता संजीव राज रेग्मी अज्ञापयत्। पारपत्र दुरूपयोगानुसन्धान सम्बद्ध पत्र पञ्जिका रविवासरे महान्यायाधिवक्तृ कार्यालयम् प्राप्त आसीत्। लामिछाने नेपाली अमेरिका देशीय पारपत्र ग्रहणस्य पारपत्रद्वय प्रयोगस्य च आरोपेण आक्षिप्तः आसीत्। अमेरिका देशीय पारपत्रस्य अर्पणेन विना नेपाली पारपत्र प्रयोग प्राप्तेः अनन्तरं विवादोद्भवनस्य कारणात् अनुसन्धानं विहितम् आसीत। त्रिभुवन विश्वविद्यालयेन स्थगित निर्वाचनेषु महाविद्यालयेषु अस्यैव चैत्रस्य द्वादशस्य दिवसस्य अभ्यन्तरे स्वतन्त्र विद्यार्थी समितेः निर्वाचनं विधातुं निर्दिष्टमस्ति। त्रिभुवन विश्वविद्यालयस्य उपकुलपतिः प्राध्यापकः डाक्टर धर्मकान्त बास्कोटा अस्यैव चैत्रस्य द्वादशा दिवसात् परीक्षा सञ्चालयितेति कारणात् ततः पूर्वमेव अवरुद्ध निर्वाचनेषु महाविद्यालयेषु विद्यार्थी समितेः निर्वाचनं कर्तुं निरदिशत्। उपकुलपतिः बास्कोटा अवरुद्ध महाविद्यालयेषु पारस्परिक सहमत्या निर्वाचन प्रक्रियाम् अग्रे वर्धयितुम् च अन्वरुणत। त्रिभुवन विश्वविद्यालयस्य द्वाषष्टेः आंगिक महाविद्यालयानां मध्ये त्रयोदशसु महाविद्यालयेषु निर्वाचन प्रक्रिया अवरुद्धा वर्तते। निर्वाचन आयोगेन जनता समाजवादी दलस्य नेत्री मञ्जु शर्मा प्रतिनिधि सभायाः सदस्य पदे निर्वाचितेति ज्ञापितमस्ति। समानुपातिक निर्वाचन प्रणाल्या प्रतिनिधि सभायाः सदस्य पदे निर्वाचितायाः सहनाज रहमान इत्यस्याः निधनस्य पश्चात् रिक्तिभूते स्थाने शर्मा निर्वाचितास्ति। पारपत्र विभागेन अद्य अश्वकला प्रदर्शनस्य अवकाशस्य दिनेपि स्वस्य सेवा प्रदीयते। सर्वकारेण अश्वकला प्रदर्शनस्य अवसरे अद्य मंगलवासरे काष्ठमण्डपु उपत्यकायां सार्वजनिकावकाश प्रदत्तः सन्नपि पारपत्र विभागेन सेवेयं पूर्वाह्नस्य दशवादनात् दिवा सार्ध द्विवादनं यावत् प्रदीयते इति विभागस्य सूचनाधिकारी खिमानन्द भूषालः अज्ञापयत्। रेडियो नेपालेन पर्वत जनपदस्य कुष्मानगरपालिकाया तृतीय वडा क्षेत्रस्य दुर्लुङकोट स्थाने स्थापितात् प्रसारण केन्द्रात् ह्य परीक्षण प्रसारणं प्रारब्धमस्ति। एफएम प्रसारण प्रणाल्यां स्वस्य प्रसारणस्य विस्तारस्य उद्देश्येन रेडियो नेपालेन पञ्चशत वाट मित क्षमताया एफएम प्रसारणोपकरणं संयोज्य परीक्षण प्रसारणमिदं प्रारब्धं वर्तते। इति समाचारः।